ॐ शुक्लां भरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे। सरस्वती नमस्तेऽस्तु वीणापुस्तकधारिणी हंसवाहनमारूढे विद्यादानं कुरुष्व मे। ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। सर्वेभ्यः नमः महोदय।
सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत् कर्मणि प्रयोगः इति। कर्तृप्रयोगः वयं सर्वदा कुर्मः, किन्तु कर्मणि प्रयोगः अपि भिन्नः प्रयोगः भवति। तस्य विषये वयं एकः तस्मिन् विषये एकः पाठः कृतः। प्रथमपाठः कर्मणि प्रयोगे तत् आसीत्, तत्र अष्टादशपाठः कर्मणि प्रयोगे, तत् वर्तमानकाले अग्रे ज्ञास्यामः नाम तत्र कर्मणि प्रयोगे तत्र वर्तमानकाले भूतकाले भविष्यत्काले सर्वं भवति इति। किन्तु सोपानेन गच्छामः अतः तत्र प्रथमतया वर्तमानकाले कर्मणि प्रयोगः अपि अद्य तत्र अग्रे गत्वा तत्र भावे प्रयोगः इति अपि अद्य पश्यामः। अस्तु तर्हि तत्र पुनः केवलं पुनस्मरणार्थं तत्र नियमाः के अपि उदाहरणम् इति तत्र उक्त्वा तत्र अग्रे सरामः। तर्हि अस्तु तत्र वेदा भगिनी नमस्कारः, सुजाता भगिनी नमस्कारः।
नमस्कारः महोदय।
नमस्कारः महोदय।
नमस्ते महोदय।
शोभा भगिनी नमस्कारः।
नमस्ते।
अस्तु तर्हि तत्र कर्मणि प्रयोगविषये तत्र अस्तु तत्र प्रिया भगिनी किञ्चित् वदति वा तत्र कर्तृप्रयोगे नियमाः के अपि कर्मणि प्रयोगे नियमाः के इति।
आम् महोदय। कर्तृप्रयोगे कर्ता इति प्रथमाविभक्त्या मध्ये अस्ति, अपि कर्मणि कर्मपदं द्वितीया विभक्ति, क्रियापदं कर्तृपदम् अनुसृत्य तदेव पुरुषः वचनम् अपि भवति। यथा छात्रः श्लोकं पठति, अत्र कर्मणि प्रयोगः अस्ति, छात्रः एकवचने अस्ति, ततः क्रियापदमपि एकवचनं प्रथमपुरुषं मध्ये अस्ति। एतत् कर्तृप्रयोगस्य नियमाः। कर्मणि प्रयोगे कर्तृपदं तृतीया विभक्तौ अस्ति, कर्मपदं क्षम्यतां, कर्तृपदं तृतीया विभक्तौ अस्ति, कर्मपदं प्रथमा विभक्तौ अस्ति, अपि च क्रियापदं कर्मपदम् अनुसृत्य तदेव वचनं पुरुषः अनुसरति। यथा छात्रः श्लोकं पठति इति कर्तृप्रयोगे वयं कर्मणि प्रयोगे कुर्मः चेत् छात्रेण श्लोकः पठ्यते इति भवति। क्रियापदस्य विषये किञ्चित् अन्यभेदाः अपि सन्ति। अत्र धातोः पूर्वं परं यकारस्य यकारम् आगच्छति, यक् इति प्रत्ययः आगच्छति धातोः परम्, अपि च तिङन्तपदस्य पूर्वम् आगच्छति मध्ये, अथवा तथा अपि च आत्मनेपदी अपि भवति क्रियापदम्।
उत्तमं भगिनि, अतः तत्र सर्वे नियमाः उक्ताः, समीचीनं भगिनि। अतः तत्र कर्तृपदस्य अपि परिवर्तनं भवति, कर्मपदस्य अपि परिवर्तनं भवति, अपि क्रियापदस्य अपि परिवर्तनं भवति। परस्मैपदी धातुः वा आत्मनेपदी धातुः वा, किन्तु कर्मणि प्रयोगे सर्वदा आत्मनेपदी रूपमेव भवति। समीचीनम्। अस्तु, इदानीं धन्यवादः भगिनि। इदानीम् अग्रे तत्र नरेश महोदय, तत्र छात्रः श्लोकः पठति इति स्थाने अहम् इति कर्तृपदं भवति चेत् कर्तृप्रयोगे किं भवति?
अहं श्लोकः श्लोकं पठामि। अत्र कर्मणि
इदानीं क्रियापदस्य वचनमपि पुरुषः कः?
तत्तु कर्तृपदम् अहम् अस्ति, कर्तृपदम् अनुसृत्य पठामि पुरुषवचन.
अतः उत्तमपुरुषः एकवचनं,
एकवचनं.
कर्मपदं तु तत्र
कर्मश्लोकम्
इति अस्ति.
श्लोकम्
इदानीं कर्मणि प्रयोगे किं भवति?
कर्मणि प्रयोगे मया श्लोकः पठ्यते.
हा, इदानीं पठ्यते इति तत्र पुरुषः वचनं किम्?
तत्तु श्लोकः कर्मपदमस्ति, तस्य अनुसृत्य पठ्यते भवति.
पठ्यते, पठ्यते इति तत्र एकवचनं. प्रथमपुरुषः, उत्तमपुरुषः, मध्यमपुरुषः कः?
प्रथमपुरुषः एकवचनं,
एकवचनं. समीचीनं, यतोहि श्लोकः इति प्रथमपुरुषपदम् अस्ति. समीचीनं. हा, इदानीम् अग्रे तत्र शोभा भगिनी, इदानीं तत्र अहम् इति स्थाने वयम् इति स्थापयामः, तत्र किं भवति कर्तृप्रयोगे?
तदेव वाक्यं महोदय.
तदेव वाक्यं.
हा, तत्र वयं श्लोकं पठामः इति कर्तरिप्रयोगे.
हा, वयं श्लोकः पठामः, तत्र श्लोक पठामः इति तत्र वचनमपि पुरुषः कः इदानीम्?
हा, तत्र पठामः इति क्रियापदं कर्तृपदम् अनुसृत्य भवति, अतः तत्र वयम् इति प्रथमविभक्तौ कर्तृपदं बहुवचने.
क्रियापदस्य वचनं पुरुषः.
हा, क्रियापदं तम् अनुसृत्य भवति इति कृत्वा तत्र एकवचनम् अपि च प्रथमपुरुषः.
वयं, वयम् इति अस्ति खलु,
पठामः इति बहुवचने,
यतोहि कर्तृपदं बहुवचने,
कर्तृपदम् अनुसृत्य बहुवचने भवति. पुरुषः,
पुरुषः,
पुरुषः उत्तमपुरुषः, तत्र
उत्तमपुरुषः. अतः कर्तृपदम् अनुसृत्य इदानीं क्रियापदस्य उत्तमपुरुष बहुवचनरूपम्. इदानीं कर्मणि प्रयोगे.
हा, वयम् अस्ति इति कृत्वा अधुना वयम् इति तृतीयविभक्तौ परिवर्तनं भवति तत्र कर्मणि प्रयोगे, अतः अस्माभिः भवति, अस्माभिः. अपि च श्लोकम् इति आसीत् कर्तरिप्रयोगे, तस्य कर्म पदस्य प्रथमविभक्ति भवति, श्लोकः इति परिवर्तनं भवति. अस्माभिः श्लोकः अधुना क्रियापदं कर्मपदम् अनुसृत्य भवति इति कृत्वा पठ्यते इति भवति, अतः तत्र अस्माभिः श्लोकः पठ्यते इति कर्मपदस्य पुरुषः अपि च वचनम्.
हा, समीचीनम्, उत्तमं भगिनी, अस्तु. इदानीं सुजाता भगिनी, तत्र छात्रः तत्र श्लोकम् इति आसीत्, तत्र बहुवचनरूपं स्वीकृत्य वाक्यं वदतु.
आं महोदय, छात्रः श्लोकान् पठति.
पठति एव, छात्रः पठति. किं पठति अथवा कान् पठति?
छात्रान्
श्लोकान् पठति.
श्लोकान् पठति.
हा, श्लोकान् पठति, छात्रः श्लोकान् पठति. तत्र पठति इति क्रियापदस्य तत्र
पठति कर्तृपदम् अनुसृत्य, कर्तृपदम् एकवचने अस्ति, क्रियापदमपि एकवचने भवति.
पुरुषः पुरुषः प्रथमपुरुषः एव तत्र इति अस्ति. अस्तु, समीचीनम्. इदानीं तत्र छात्रः श्लोकान् पठति. इदानीं कर्मणि प्रयोगे किं भवति?
कर्मणि प्रयोगे छात्रेण श्लोकाः पठन्ति. पठ्यन्ते.
सर्वदा आत्मनेपदीरूपम्. अपि इदानीं किमर्थं तत्र छात्रेण इति एव आसीत्, किमर्थं पठ्यन्ते इति अभवत्?
पठ्यन्ते कर्मणि प्रयोगे यत् प्रत्ययः आयाति.
अपि तत्र किमर्थं बहुवचनरूपं?
बहुवचनरूपं पठ्यन्ते भवति.
किमर्थम्?
आत्मनेपदी भवति कर्मणि प्रयोगे.
सत्यं, सत्यं, किन्तु बहुवचनं किमर्थम्?
बहुवचनं कर्मपदम् अस्ति श्लोकान् इत्यनेन
श्लोकाः इति अस्ति. अस्तु समीचीनं, श्लोकाः इति अस्ति. अतः कर्मपदम् अनुसृत्य क्रियापदं भवति, अतः छात्रेण श्लोकाः पठ्यन्ते. समीचीनं,
धन्यवादः.
धन्यवादः भगिनि. समीचीनं. मधुर महोदय नमस्कारः.
नमस्कारः
भगिनि. नमस्कारः. सुप्रभातं भगिनि. ललिताकुमारी भगिनि नमस्कारः. सुप्रभातं.
कस्मिन् पुटे स्मः महोदय?
हा इदानीं भगिनि तत्र नूतन विषयः भवति, तत्र भावे प्रयोगः, किन्तु पेज् 128 भवति. किन्तु तस्मात् प्राक् तत्र कर्मणि प्रयोगस्य पुनःस्मरणम्.
ओ एवं वा, अस्तु महोदय.
अस्तु, इदानीम् अग्रे तत्र वेदा भगिनी, इदानीं तत्र छात्राः इति अथवा तत्र अहम् अहम् इति स्वीकृत्य वदतु. अहं श्लोकान् इति.
अहं श्लोकान् पठामि. अहं
श्लोकान् पठामि. तत्र पठामि इति उत्तमपुरुष एकवचनम्.
एकवचनम्. अहम् अनुसृत्य, अहम् अनुसृत्य कर्तरि प्रयोगे कर्ता अनुसृत्य भवति. अपि च कर्मणि
अनुसृत्य कर्तारम् अनुसृत्य
अहम् अण्ड् कर्मणि प्रयोगे अहं भवति. मया मया किं वदति श्लोकान् श्लोक मया श्लोकाः मया श्लोकाः पठ्यन्ते.
मया श्लोकाः पठ्यन्ते. समीचीनं.
कर्म कर्म अनुसृत्य श्लोकाः बहुवचने अस्ति, तदेव धातुतः बहुवचनरूपमस्ति. कर्मणि प्रयोगे आत्मनेपदीरूपमस्ति, यकार योजयित्वा
अपि मध्ये भवति. समीचीनं. पठ्यन्ते इति समीचीनं. हा अस्तु, उत्तमम्. इदानीं तत्र ललिता भगिनी, तत्र त्वं नमस्कारः भगिनि. हा तत्र त्वं श्लोकं किं भवति इदानीं क्रियापदम्?
पठ्यते.
न न, कर्तृप्रयोगे त्वं श्लोकं. तत्र छात्रः श्लोकं पठति इति तत्र प्रथमपुरुषे. इदानीं मध्यमपुरुषे तत्र पठति इति क्रियापदस्य किं रूपं भवति? त्वम् इति आसीत् चेत् कर्तृपदं.
पठसि.
हा त्वं श्लोकं पठसि. समीचीनं. तत्र पठसि इति कर्तृपदम् अनुसृत्य भवति. समीचीनम्. इदानीं तत्र कर्मणि रूपं वदतु.
तया तया श्लोकं
श्लोकः श्लोकः इदानीं
श्लोकः पठ्यते.
पठ्यते. समीचीनं. हा त्वया श्लोकः पठ्यते. पठ्यते तत्र श्लोकः एकवचने अस्ति. समीचीनं. हा अस्तु, इदानीं वंशीसुधा भगिनी, इदानीं तत्र अन्यत् तत्र किं? हा आवां. हा तत्र आवां वयं वयं कृतवन्तः. त्वम् इति स्थाने बहुवचनं स्वीकृत्य वदतु. त्वम् इति स्थाने बहुवचनं किं?
यूयम् अस्ति.
यूयं. हा त्वं युवां यूयं. हा अस्तु, यूयं श्लोकं पठति. पठतः पठन्ति. पठसि. पठतः पठथ.
श्लोकं
श्लोकम् एकवचने स्वीकरोतु. यूयं श्लोकं पठथ. इदानीं
तत्र कर्मणि प्रयोगे यूयं तु अस्माभिः भवति, युष्माभिः. युष्माभिः भवति. युष्माभिः श्लोकः पठ्यते.
युष्माभिः श्लोकः पठ्यते इति भवति. अस्तु समीचीनं. हा अस्तु, इदानीं तत्र उषा भगिनी, तत्र इदानीं तत्र अन्यत् किमपि नूतनवाक्यं स्वीकुर्मः. तर्हि तत्र किं स्वीकुर्मः? तत्र हा शिक्षकः शिक्षकः छात्रान् वदति शिक्षकः छात्रान् वदति
शिक्षकः छात्रान्
वदति
छात्रान् अस्ति
शिक्षकः छात्रान् वदति
शिक्षकेन छात्राः वदन्ति
तत्र वद् इति धातुः तत्र किं भवति
वद्
उ इति भवति समीचीनं उद्यते इति एकवचने उद्यते अतः वाक्यं किं
शिक्षकेन छात्राः उद्यते
किन्तु तत्र कर्मणि प्रयोगे किं भवति क्रियापदं कम् अनुसृत्य भवति
कर्मणि प्रयोगे कर्मपदम् अनुसृत्य क्रियापदं भवति महोदय
अस्तु इदानीं कर्मपदं किमस्ति अस्मिन् वाक्ये
छात्राः
वचनं किं
बहुवचनं
अस्तु क्रियापदं किम्
उद्यन्ते
अतः पूर्णवाक्यं पुनः
शिक्षकेन छात्राः उद्यन्ते
शिक्षकेन छात्राः उद्यन्ते समीचीनं समीचीनं भगिनि अस्तु इदानीं मधुमहोदय इदानीं तत्र शिक्षकः छात्रं वदति इति भवति चेत् तत्र वाक्यं कर्मणि प्रयोगे वाक्यं किं भवति
शिक्षकः छात्रं वदति
इदानीं कर्तृप्रयोगः इदानीं कर्मणि प्रयोगे
शिक्षकेन छात्रः
उद्यते तत्र वयं जानीमः खलु तत्र आत्मनेपदी धातुः तत्र किं भवति कम्पते कम्पेते कम्पन्ते इति भवति खलु अतः तत्र उद्यन्ते अत्र उद्यते इति एकवचनं समीचीनम् अतः तत्र सर्वे उक्तवन्तः इति मन्ये अतः तत्र सर्वेषां कृते तत्र पुनस्मरणं जातम् इति मन्ये अतः इदानीम् अग्रे सरामः तत्र इदानीं तत्र नूतनविषयः अस्ति तत्र भावे प्रयोगः इति तत्र भावे प्रयोगः कः इति तत्र भेदः वर्तते तत्र किञ्चित् स्मरामः पश्यामः तत्र पुटसङ्ख्या 129 अस्ति तत्र तद् एकवारं पश्यामः तत्र कः वदति अस्तु तत्र सुजाता भगिनी तत्र उपरि दत्तमस्ति तत्र पुटसङ्ख्या 129 मध्ये
महोदय
छात्रः इति अकर्मकधातूनाम् इति
अकर्मकधातूनां कर्तरिप्रयोगः भावे प्रयोगाच्च सम्भवतः यदा छात्रः उपविशति छात्रेण उपविश्यते एते उत्तिष्ठन्ति एतैः उच्चीयते शिशुः रोदिति शिशुना रुध्यते भगिनी हसति भगिन्या हस्यते नर्तक्यः नृत्यन्ति नर्तकीभिः नृत्यते
इति अस्ति अस्तु समीचीनं भगिनी अस्तु इदानीम् अग्रे तत्र वेदा भगिनी किञ्चित् तत्र छात्रः उपविशति छात्रेण उपविश्यते तत् स्वीकृत्य किञ्चित् वदतु भगिनि तत्र किं किम् अस्ति इति धन्यवादः भगिनी
अकर्मकधातूनां कृते भावे प्रयोगः भवति तत्र भावे प्रयोगे अपि कर्ता तृतीय कर्तारं तृतीया विभक्ति एव भवति कर्मणि प्रयोगे एव कर्तारम् अत्र अपि तृतीया विभक्ति भवति कर्तार ने वडि तृतीया
कर्तारः
कर्तारः इति मन्ये
तत्र का विभक्ति अपेक्षिता भवत्या?
द्वितीयकर्तारम् इति कर्तारं तृतीया विभक्ति एव भवति इति
कर्तारम् इति न न तत्र भवती किं वक्तुम् इच्छति, कर्तृपदम् इति वा
तृतीया विभक्ति एव भवति?
हा कर्तृपदस्य तृतीया विभक्त्यन्तं
षष्ठीविभक्ति
कर्तृपदस्य तृतीया विभक्त्यन्तं भवति रूपं
भवति छात्रः
तत्र छात्रः कर्तृपदं
छात्रः कर्तृपदम् उपविशति धातु धातु अस्ति छात्रः
उपविशति धातु न क्रियापदं साक्षात् क्रियापदं खलु
क्रियापदमस्ति छात्रः छात्रेण इति तृतीया विभक्त्यन्तरूपम् अस्ति छात्रेण उपविशति तस्य रूपं भवति भावे अपि य य युज्य धातु
उपयोगः तत्र धातु कः अस्ति कः धातुः उपविशति इति क्रियापदे उपयोगः
यकारयोगः ते आत्मनेपदे रूपं ते
अतः रूपं उपविश्यते इति भवति. अस्तु समीचीनम्. इदानीं तत्र छात्रः उपविशति इति स्थाने अहम् इति स्थापयतु किं भवति?
अहम् उपविशामि अहम् उपविशामि मया उप विश् नो विश्यते उपविश्ये अहम् उपविश्ये मया उपविश्ये मया
इति इति चिन्तयामः इति चिन्तनम् अस्ति किन्तु तत्र अहम् उपविश्ये इति चिन्तयामः किन्तु तत्र नियमः कः
सर्वदा प्रथमपुरुष
तत् भवती नियमान् जानाति इति कृत्वा मा वदतु किन्तु केवलं यदि कर्मणि प्रयोगः एव वयं जानीमः इति चिन्तयतु तत्र कर्मणि प्रयोगे किं भवति कर्मपदम् अनुसरति. अत्र कर्मपदम् अस्ति वा? नास्ति. अतः यद्यपि कर्तृपदस्य परिवर्तनम् अभवत् कर्मपदं तत्र नास्ति एव खलु छात्रः उपविशति अहम् उपविशामि तत्र कर्मपदं नास्ति खलु कर्तृपदस्य परिवर्तनम् अभवत् कर्मपदं नास्ति खलु अतः तत्र क्रियापदं किम् अनुसृत्य भवति रूपं भवति न तत्र किमपि न वक्तुं शक्नुमः यतोहि कर्मपदमेव नास्ति खलु अतः तत्र नियमः नूतननियमः अपेक्षितः यतोहि तत्र कर्मणि प्रयोगः एव वयं कर्तुं इच्छामः किन्तु तद् न कर्तुम् इच्छामः यतोहि तत्र कर्मपदमेव नास्ति तत्र अकर्मकः धातुः अस्ति अतः अस्तु तत्र अतः इदानीं पुनः वदतु तत्र छात्रः उपविशति छात्रेण उपविश्यते अहम् उपविशामि तत्र किं भवति
मया उपविश्यते एव भवति वा
मया उपविश्यते एव भवति यतोहि तत्र कर्मपदं नास्ति कर्मपदस्य वचनं पुरुषः दृष्ट्वा क्रियापदं भवति किन्तु अत्र कर्मपदमेव नास्ति इति कृत्वा तत्र डिफाल्ट् भवति सर्वदा तत्र प्रथमपुरुषे एकवचने एव भवति इति अस्ति अतः तत्र एकवारं नियमान् पठामः तदनन्तरं पुनः एतानि वाक्यानि परिशीलयामः तर्हि तत्र अस्तु तत्र ललिता भगिनी तत्र अवधेयम् इति यत् अस्ति तत् पठति वा
आम् महोदय एतेषां वाक्यानां परिशीलनानन्तरं वयं भावे प्रयोगस्य नियमान् एवं सङ्ग्रहीतुं शक्नुमः भावे प्रयोगे कर्तृपदं तृतीया विभक्त्यन्तं भवति
एतत् वयं जानीमः खलु तत्र वाक्यानि दृष्ट्वा कर्तृपदं सर्वदा तृतीया विभक्त्यन्तं भवति उपरि खलु अस्तु
भावे प्रयोगे कर्मपदं न भवति
इति वार्ता खलु नूतनवार्ता अस्ति तत्र अकर्मकधातुः अस्ति अतः कर्मपदं नास्ति अतः तत्र अपि वाक्ये अपि वाक्येषु अपि वयं पश्यामः तत्र कर्मपदमेव नास्ति अतः इदानीं तत्र क्लेशः प्रश्नः भवति तत्र अस्तु कर्मपदं नास्ति चेत् क्रियापदं क्रियापदस्य रूपं कथं भवति यतोहि किम् अनुसृत्य तस्य रूपम् इति न जानीमः अतः इदानीं तृतीयबिन्दुः
भावे प्रयोगे क्रियापदं सर्वदा प्रथमपुरुष एकवचनान्तमेव भवति यथा पत्यते धाव्यते पत्यते धाव्यते इत्यादीनां रूपाणां प्रयोगः कदापि न सम्भवति एवमेव
पत्येते धाव्येते
पत्येते धाव्येते आम् क्षम्यतां पत्येते धाव्यते इत्यादीनां रूपाणां प्रयोगः कदापि न सम्भवति एवमेव मध्यमपुरुषस्य उत्तमपुरुषस्य च अपि न सम्भवति
अतः तत्र पत्यते इति अस्ति पत्येते इति कदापि वयं न शृणुमः अपि तत्र उत्तमपुरुषे एकवचने रूपं किं भवति पत्यते इति पदस्य
पत्यसे
पत्यसे इति तत्र मध्यमपुरुषे उत्तमपुरुषे
पत्ये
पत्ये तत्र पत्ये कदापि वाक्ये न आगच्छति यतोहि तत्र रूपं कर्तुं शक्नुमः किन्तु प्रयोगः कदापि न भवति तत्र पतति इति अस्ति तत्र पत्यते पत्येते पत्यन्ते इति वदामः किन्तु रूपम् अस्ति तत्र रूप नवरूपाणि अपि भवन्ति किन्तु प्रयोगे कर्मणि प्रयोगे केवलं तत्र पत्यते इति एव भवति अतः तत्र क्रियापदस्य सर्वदा
प्रथमपुरुष
एकवचनरूपमेव भवति समीचीनम् इदानीं तत्र इदानीं पुनः भगिनि तत्र छात्रः उपविशति छात्रेण उपविश्यते तत्र अहम् इति वदामः स्थापयामः कर्तृपदं किं भवति अहम्
अहम् उपविशामि मया उपविश्यते
त्वं
त्वम् उपविशसि त्वया उपविश्यते
वयं
वयम् उपविशामि
अस्माभिः
उपविशामः अस्माभिः उपविश्यते
अस्माभिः उपविश्यते एव भवति तत्र सर्वदा उपविश्यते एव भवति समीचीनं भगिनि धन्यवादः अस्तु अग्रे मधु महोदय इदानीं तत्र एते उत्तिष्ठन्ति तत्र किं भवति
एते एते उत्तिष्ठन्ति
तत्र एतैः
उत्तिष्ठे
उत्तीयते
उत्तीयते
प्रथम एतैः प्रथमा विभक्ति एकवचनम् एव अस्ति इदानीं तत्र अहम् इति अस्ति चेत् तत्र किं भवति अहम्
अहम् उत्तिष्ठामि मया उत्तीयते
इति एव भवति वयम् इति वयं
वयम् उत्तिष्ठामः अस्माभिः अस्माकं
न न अस्माभिः एव
अस्माभिः क्षमताम् अस्माभिः उत्तीयते
अस्माभिः अपि तत्र तत्रापि उत्तीयते तत्र क्रियापदस्य परिवर्तनं तत्र सर्वदा एकवचनं प्रथमपुरुषे एकवचनरूपमेव भवति तत्र अस्माभिः उत्तीयते त्वं
त्वम् उत्तिष्ठ उत्थाय
उत्तिष्ठसि
उत्तिष्ठसि त्वम् उत्तिष्ठति
उत्तिष्ठसि
ते उत्तिष्ठसि
त्वया न न त्वया
त्वयं त्वया उत्तीयते
त्वया उत्तीयते इति रूपं भवति समीचीनं अस्तु अग्रे नरेश् महोदय इदानीं शिशुः रोदिति
शिशुः रोदिति
शिशुः रोदिति इति अकर्मकः खलु अकर्मकदातु
अकर्मकः अस्ति
तत्र प्रश्नः न भवति खलु किं रोदिति इति प्रश्ने तत्र उत्तरं न लभ्यते
शिशुः रोदिति शिशुना तृतीयविभक्ति रुध्यते
रुध्यते इति प्रथमपुरुष एकवचन इदानीं तत्र शिशुः इति स्थाने बहुवचनं स्वीकरोतु
शिशवः रोदन्ति शिशुभिः
रुदन्ति महोदय
रुदन्ति रुदन्ति हा क्षम्यतां धन्यवादः भगिनि हा रोदिति तत्र द्विवचने किमस्ति कोऽपि स्मरति वा रोदिति
रुदितः रुदन्ति
रुदितः रुदन्ति हा समीचीनं भगिनि हा धन्यवादः
धन्यवादः शिशवः रुदन्ति शिशुभिः रुद्यते
हा शिशुभिः अस्ति किन्तु रुद्यते रूपमेव भवति त्वम् इति
त्वं रोदिषि रोदिषि
रोदिषि
रोदिषि त्वं रोदिषि त्वया रुद्यते
हा इति भवति समीचीनं हा अतः तत्र परिवर्तनं न भवति रुद्यते इति रूपमेव तिष्ठति अस्तु अग्रे प्रिया भगिनि अग्रिमवाक्यं भगिनी
भगिनी हसति
तत्र हसति अकर्मकं खलु अकर्मक धातुः
किं हसति इत्यस्य प्रश्नस्य उत्तरं नास्ति ततः हसति इति अकर्मकः धातुः ततः भगिन्या हस्यते इति भवति
हा तत्र बहुवचने करोतु भगिनी इति स्थाने
भगिन्यः हसन्ति भगिनीभिः हस्यते
हा भगिनीभिः अस्ति किन्तु हस्यते एव रूपं भवति तत्र अहम् इति स्थापयतु
अहं हसामि मया हस्यते
वयं
वयं हसामः अस्माभिः हस्यते
हा इति भवति अतः तत्र यत्किमपि कर्तृपदं भवतु क्रियापदस्य सर्वदा प्रथमपुरुष एकवचनरूपमेव भवति हा समीचीनम् अस्तु अग्रे तत्र शोभा भगिनि अग्रे नर्तक्यः
नर्तक्यः नृत्यन्ति तत्र नर्तकीभिः नृत्यते इति भवति
त्वम् इति स्थापयतु तत्र अथवा एकवचने वदतु
त्वं नृत्यसि त्वया नृत्यते एव
अपि नर्तक्यः इति स्थाने एकवचनं
नर्तकी नृत्यति नर्तक्या नृत्यते
नृत्यते इति भवति हा अस्तु समीचीनम् अतः तत्र सर्वदा एकवचनं प्रथमपुरुषरूपमेव भवति इति अस्तु समीचीनम् इदानीं तत्र अग्रे सरामः तत्र अन्यविषयः अपि तत्र भवति किन्तु तत्र पाठं पठित्वा तत्र अग्रे पश्यामः अस्तु तत्र अपर्णा भगिनी नमस्कारः
नमस्कारः महोदय सुप्रभातं
नमस्कारं सुप्रभातं भगिनि अस्तु इदानीम् अत्र अग्रे सरामः तत्र हा वंशी सुधा भगिनी तत्र साक्षात् पाठः ये अस्ति तम् आरम्भं करो तस्य आरम्भं करोति वा
आं महोदय त्यक्ताहङ्कारेण भाररहितेन भूयते श्रूयते वा महोदय
समीचीनं भगिनि
एतां कथां सावधानतया उच्चैः पठत अवगच्छत च भावे प्रयोगः वर्तमानकाले पठामि वा महोदय तत्र
पठतु भगिनि प्रथमपरिच्छेदं पठतु
अस्तु एकः काकः तेन आकाशे दीयते तेन सह अन्यैः अपि पक्षिभिः दीयते तैः एकत्र मांसखण्डः दृश्यते मांसखण्डं मुखेन गृहीत्वा काकेन अनुक्षणं तस्य पृष्ठतः अन्यैः काकैः गृध्रैः च धाव्यन्ते धाव्यते मांसखण्डं रक्षितुम् अनेन काकेन ततोपि उपरि दीयते काकैः गृध्रैः च अपि स्वस्य श्रान्तताम् अपरिगण्य अपरिगणय्य तस्य पृष्ठतः दीयते
समीचीनम्
तत्र
तावत् प्रथमवारम् एकं किञ्चित् अस्तु किञ्चित् विवृणोतु भगिनि सर्वे अस्तु एकः काकः
काकः आसीत् तत्र आकाशे तत्र डयनं करोति
डयति
डयनं करोति अहम् उक्तवती अस्तु महोदय अन्यैः
तत्र तेन आकाशे दीयते इति तत्र कर्तृप्रयोगः कः
सः आकाशे डयते
डयति
डयति वा डयति
डयते
तत् अग्निपदिकमस्ति वा
डयते
डयते हा अस्तु धन्यवादः डयते अस्तु
सः
डयते डयते एव धन्यवादः डयते एव अस्ति
तत्र तेन सह अन्यैः पक्षिभिः अपि डयन्ते तत्र डयन्ते इति भवति न महोदय तत्र तेन सह अन्यैः
डयते इति अस्ति चेत् आत्मनेपदी आत्मनेपदीरूपं डयते डयेते डयन्ते तत्र अतः तत्र सः आकाशे डयते तदनन्तरं तत्र किं भवति तेन सह अन्यैः अपि पक्षिभिः दीयते
दीयते पक्षिभिः दीयते तत्र तु आत्मनेपदीरूपमस्ति यतोहि भावे प्रयोगः अस्ति पक्षिभिः दीयते
तत्र कर्तृपदं किम् अस्ति
कर्तृपदं तु तेन तेन सह इति अस्ति न महोदय तेन सह अन्यैः तत्र पक्षिभिः दीयते क्षम्यतां पक्षिभिः दीयते तत्र
पक्षिभिः दीयते तत्र
पक्षिभिः
तत्र तेन इति तु तत्र सः इति उपपदविभक्ति खलु
उपपदविभक्तिः अस्ति कर्तृपदं तु पक्षिभिः अस्ति
पक्षिभिः
पक्षिभिः दीयते इति कर्तृपदमस्ति तत्र
अपि इदानीं तत्र नूतनवार्ता नाम तत्र पक्षिभिः दीयते तत्र एतत् स्वीकुर्मः तत्र उत्तमः छात्रः श्लोकं पठति इति स्वीकुर्मः वाक्यम् उत्तमः छात्रः श्लोकं पठति तत्र कर्मणि प्रयोगे रूपं किम्
उत्तमः छात्रः श्लोकं पठति उत्तमेन छात्रेण श्लोकः पठ्यते
किमर्थम् उत्तमेन इति अभवत्
तत्र विशेषणविशेषभावः अस्ति महोदय
तेन किं भवति तत्र विशेषणविशेषभावः अस्ति चेत् कर्तृपदस्य या विभक्ति सा विभक्ति एव तत्र विशेषणस्य तत्र कर्तृपदं न विशेष्यस्य या विभक्ति सा एव विभक्ति तत्र विशेषणस्य अपि खलु अतः तत्र उत्तमः छात्रः इति स्थाने उत्तमेन छात्रेण इति भवति अत्र किमस्ति पक्षिभिः इति तत्र विशेष्यं वा तत्र विशेषणम् अस्ति वा अत्र
अन्यैः पक्षिभिः अस्ति
अतः तत्र विशेषणमपि अस्ति विशेषणस्य अपि तृतीयाविभक्त्यन्तरूपम् अस्ति अन्यैः पक्षिभिः अन्यैः अपि पक्षिभिः दीयते अग्रे
महोदय क्षम्यतां कोऽपि अन्ये पठितुं शक्नोति वा
अस्तु 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 चिन्ता मास्तु भगिनि समीचीनमेव अस्तु इदानीम् अग्रे तत्र चिन्ता मास्तु भगिनि अस्तु अग्रे तत्र शुभदा भगिनी नमस्कारः तत्र अपर्णा भगिनी भवती एतावत् न पठितवती तत्र अग्रे किञ्चित् विवृणोति वा तर्हि पुटसङ्ख्या 128 तत्र साक्षात् तैः एकत्र इति आरभ्य
तैः एकत्र मांसखण्डः दृश्यते
तत्र किं कर्तृपदं किं
ते
हा ते इति कर्तृप्रयोगे
ते एकत्र मांसखण्डं पश्यन्ति
हा तत्र ते के
पक्षिणः
हा समीचीनं हा अपि तत्र विशेषणमपि स्थापितुमिच्छामश्चेत् किं भवति पूर्वस्मिन् वाक्ये अन्यैः पक्षिभिः इति आसीत्
अन्ये पक्षिणः एकत्र मांसखण्डं पश्यन्ति
समीचीनं हा अस्तु अग्रे
मांसखण्डं मुखेन गृहीत्वा काकेन पलायते मांसखण्डं मुखेन गृहीत्वा काकः पलायते
तत्र पलायति इति एव अस्ति खलु पलायते इति वा
पलायते पलायति
अहं चिन्तयामि मम मनसि अपि क्लेशः अस्ति न स्मरामि अस्तु तत् अग्रे द्रक्ष्यामः किन्तु तत्र अस्मिन् वाक्ये तत्र तृतीयविभक्त्यन्तपदं किं किम् अस्ति
काकेन
अपि
मांसखण्डं मुखेन गृहीत्वा तद् कर्तृपदं नास्ति काकेन इति कर्तृपदम् अस्ति
काकेन एव कर्तृपदम् अस्ति यद्यपि मुखेन इति तृतीयविभक्त्यन्तमस्ति तत्र मुखेन तत् किं भवति तत्र कर्मणि प्रयोगः इति नास्ति किन्तु तत्र
कर्मणि प्रयोगः नास्ति मुखेन
तत्र हा तत्र माध्यमम् अथवा हा इति तत्र तादृशतृतीया अस्ति अतः तत्र कर्मणि तृतीया नास्ति केवलं काकेन इति एव कर्मणि तृतीया समीचीनम् अग्रे
अनुक्षणं तस्य पृष्ठतः अन्यैः काकैः गृध्रैः च धाव्यते अनुक्षणं तस्य पृष्ठतः अन्ये काकाः गृध्राः च धावन्ति
हा अतः अनुक्षणं तस्य पृष्ठतः तस्य इति कस्य
काकस्य
पृष्ठतः अन्ये काकाः गृध्राः
च धावन्ति
समीचीनं हा अस्तु अग्रे
मांसखण्डं रक्षितुम् अनेन काकेन ततोपि उपरि दीयते
हा
मांसखण्डं वदतु महोदय
वदतु भगिनि हा
मांसखण्डं रक्षितुं एषः काकः ततोपि उपरि दयते
हा दयते तत्र समीचीनं तत्र उपरि दयते काकेन काकः उपरि ततोपि उपरि
दयति
हा तत्र एतेन आसीत् चेत् एषः अत्र अनेन अस्ति अतः तत्र अयं काकः तावदेव
अयं काकः
ततोपि उपरि धायति हा समीचीनम् अग्रे
काकैः गृध्रैः च अपि स्वस्य श्रान्तताम् अपरिगणय्य तस्य पृष्ठतः दीयते काकाः गृध्राः च अपि स्वस्य श्रान्तताम् अपरिगणय्य तस्य पृष्ठतः दयन्ते
हा इति अस्ति तत्र अस्तु समीचीनं भगिनि हा उत्तममासीत् हा धन्यवादः इदानीम् अग्रे तत्र धन्यवादः भगिनि शुभदा भगिनि नमस्कारः
नमस्ते महोदय
नमस्कारः भगिनि पुटसङ्ख्या 128 अस्ति भगिनि अस्तु अस्तु समीचीनम् अस्तु वेदा भगिनि इदानीं तत्र अन्तिमवाक्यं तत्र काकैः गृध्रैः इति
काकैः गृध्रैः चापि स्वस्य तत् पठितवती न भगिनि
किन्तु किञ्चित् विवृणोतु तत्र किं भवति तत्र काकैः गृध्रैः चापि स्वस्य श्रान्ततां अपरिगणय्य इति अस्ति खलु
अपरिगणय्य तस्य पृष्ठतः दीयते
अर्थः कः अस्य वाक्यस्य
तस्य काकाः अपि च गृध्राः स्वस्य श्रान्तताम् इत्युक्ते विश्रामं कृत् करोति वा तस्य रूपं वा श्रान्तताम् इत्युक्ते
अस्तु अस्तु एतावत् किम् अभवत् इति किञ्चित् वदतु भगिनि पाठे तत्र किम् अस्ति स्वशब्दैः किञ्चित् वदतु तर्हि
काकः आकाशे एकः काकः आकाशे आकाशे डयते तस्य सह अन्याः
तस्य सह न तेन सह
अन्ये पक्षी तस्य नद्या पक्ष्याः अपि डयन्ते
पक्षी इति
किमस्ति
अस्तु अस्तु अपर्ण भगिनी सहायं करोतु तत्र पक्षी
मतयः लैक् मतयः
पक्षिणः
ओ पक्षिन् इति शब्दमस्ति वा
पक्षिणः धन्यवादः
अन्ये पक्षिणः डयन्ते आकाशे एकत्र ते सर्वे एकत्र एक मांसखण्डः दृश्यते तत्र
इदानीं कर्तृप्रयोगे भवति
एकत्र मांसखण्ड खण्डं पश्यन्ते ते
पश्यन्ति
मांसखण्डं मुखेन गृहीत्वा काकेन पलायते
अस्तु भगिनि हा अस्तु एतावत् समीचीनं किं हा समीचीनं तत्र एकत्र मांसखण्डं पश्यन्ति अस्तु समीचीनम् इदानीं तत्र स्वशब्दैः तत्र हा शोभा भगिनि स्वशब्दैः किञ्चित् अग्रे यद्यत् अभवत् इति किञ्चित् विवृणोति वा
अस्तु महोदय मांसखण्डं मुखेन गृहीत्वा काकेन पलायते अनुक्षणं तस्य पृष्ठतः
न किन्तु तद् वाक्यं स्वीकृत्य तत्र किम् अभवत् इति तत्र केवलं विवरणं स्वशब्दैः
तत्र
तत्र एकः काकः आसीत् काकः आकाशे डयते
डयन् अस्ति अपि च काकः एकं ओ तत्र प्रथमतया किल
किन्तु
प्रथमवाक्यं ततः किल वा महोदय अथवा यत् अहं पठितवती तदेव
यथा भवत्याः इच्छा भगिनि
अस्तु महोदय अस्तु तत्र एकः काकः आकाशे डयन् अस्ति
डयन् इति समीचीनं नास्ति डयमानः
डयन् इति नास्ति
तत्र आत्मनेपदे आत्मनेपदे अस्ति डयमानः काकः एकः डयमानः काकः आकाशे डयमानः काकः एकम् एकत्र एकं मांसखण्डं पश्यति मांसखण्डं मुखेन तत्र मांसखण्डं स्वीकृत्य सः काकः ततः पलायते किन्तु तत्र तेन सह अन्ये पक्षिणः अपि डयन्तः स्मः
डयन्तः इति नास्ति पुनः भगिनि तत्र शत्रन्तः एतत् सर्वं क्रीडतु तत्र
डयन्ति इति एव
किन्तु इदानीं तत्र एतत् न जानीमः इति कृत्वा डयन्ति इति एव स्वीकरोतु
अन्ये पक्षिणः अपि डयन्ते अथवा डयन्ते स्म इति वक्तुं शक्नोमि वा महोदय
डयन्ते स्म इति न डयन्ते इति एव स्वीकरोतु यतोहि
डयन्ते अस्तु डयन्ते अतः तत्र ते अपि मांसखण्डम् इष्ट्वा अधुना तत्र अन्ये काकाः गृध्राः च तस्य काकस्य पृष्ठतः धावन्ति तदनन्तरम् अतः अयं काकः
तत्र पलायते इति एव अस्ति भगिनि तत्र पलायते
तदनन्तरस्य वाक्ये धाव्यते इति
किल महोदय
यदा काकाः गृहाः तस्य पृष्ठतः धावन्ति इति किन्तु काकः तु पलायते मांसखण्डं रक्षितुम् अनेन काकेन ततोपि उपरि दीयते अतः काकः अधुना स्वस्य मांसखण्डं तस्य रक्षणं कर्तुम् इतोपि उपरि दयते
आकाशे एतावत् तत्र सर्वे अवगतवन्तः तत्र कथायां किं किम् अस्ति इति अस्तु अस्तु समीचीनम् इदानीं तत्र अग्रे तत्र उषा भगिनी अग्रिमवाक्यं स्वीकृत्य किञ्चित् वदति वा
आं महोदय काकैः गृद्धैः च अपि स्वस्य श्रान्ततां अपरिगणय्य तस्य पृष्ठतः दीयते काकः अपि च गृद्धः स्वस्य शान्ततां पेशन्स् अस्ति वा महोदय शान्ततां इत्युक्ते
टयर्ड्
समीचीनं
टयर्ड्
तत्र किम् अस्ति तत्र यदि बहुकालं कार्यं करोति चेत् किं भवति भवति
टयर्ड्
भवति संस्कृतेन वदतु तत्र श्रान्ता
श्रान्ता
तत्र पुरुषः श्रान्तः भवति महिला
भवति
पुरुषः श्रान्तः भवति महिला श्रान्ता भवति तत्र तस्य भावः श्रान्तता तस्य भावः अस्ति श्रान्तता तत्र श्रान्ततां अपरिगणय्य तत्र किमस्ति तत्र क्रिया तत्र क्रियापदं किमस्ति तत्तु कीदृशरूपम् अपरिगणय्य इति
ल्यप् अस्ति महोदय
ल्यप् अस्ति हा किन्तु तत्र
गणना न भवितुम् अर्हति वा
अपरिगणय्य नाम तत् तस्य विषये चिन्तनं न कृत्वा अकृत्वा
दुर्लक्ष्य
अस्ति
दुर्लक्ष्य
हा तत्र श्रान्तः अस्मि किन्तु श्रान्तः अस्मि किन्तु इदानीं तस्य विषये अहं न चिन्तनं कर्तुम् इच्छामि तत्र यद्यपि अहं श्रान्तः अस्मि अहम् अग्रे गच्छामि इति तत्र अपरिगणय्य अपरिगणयति इति
किमपि कृत्वा पांसखण्डं गृह्णामि
श्रान्तः अस्मि चेदपि अहं मांसखण्डम् इच्छामि इति तत्र अतः तत्र श्रान्तताम् इति कर्मपदं भवति अपरिगणयति इति तस्य क्रियापदस्य किन्तु ल्यबन्तरूपं तद् श्रान्ततां अपरिगणय्य सः तत्र काकाः गृध्राः तस्य काकस्य पृष्ठतः
दीयते
दयन्ते
दयन्ते
इदानीं दयन्ते तत्र श्रान्ततां कस्य श्रान्ततां
स्वस्य काकः अपि च गृध्रः
स्वस्य श्रान्ततां तत्र काकः प्रत्येककाकः स्वस्य श्रान्तता अस्ति तां अपरिगणय्य तत्र पृष्ठतः धायते अस्तु समीचीनम् इदानीम् अग्रे अपि वदतु भगिनि तत्र पठतु
अनेन काकेन तु कम्प्यते
किं भवति एषः काकः किं भवति
अनेन
इति तत्र एषः इति पदस्य
अनेन अयं न महोदय
सत्यम् अयम्
अयं काकः तु कम्प्यते
कम्पते
कम्पति
कम्पते
कम्पति आत्मनेपदे कम्पति
अयं काकः तु कम्पते
तस्मात् काकस्य मुखात् मांसखण्डेन पत्यते
हा तत्र किं भवति
काकस्य मुखात् मांसखण्डं पतति खण्डेन
मांसखण्डः
पतति.
हा तत्र कर्तृपदं किमस्ति अस्मिन् वाक्ये?
कर्तृपदं काकः महोदय.
तस्मात् काकस्य मुखात् इति वा तत्र तस्मिन् वाक्ये?
काकस्य मुखात् मांसखण्डः पतति.
कर्तृपदं किमस्ति?
मांसखण्डः. ओ मांसखण्डः महोदय.
हा मांसखण्डः पतति. कस्मात् पतति? काकस्य मुखात्
मांसखण्डः पतति.
पतति तस्मात् इति अस्ति, तस्मात् इति किमस्ति?
काकस्य मुखात् तस्मात् इति फ्रम् द पञ्चमी विभक्ति अस्ति तत्र.
हा किन्तु किमर्थं पञ्चमी तत्र?
काकस्य मुखात् अस्ति न महोदय, विशेषणविशेषात् मुखात्.
न न तस्मात् मुखात् इति तत्र किं?
तस्मात् मुखात्
इति विशेषणं.
काकस्य मुखात् मुखात्
न कम्पनात्, काकस्य कम्पनात् काकस्य मुखात्
तस्मात् इति कारणं तत्र. तस्मात् कारणात् नाम तत्र काकः
कम्पति अतः
कम्पते कम्पनात् तत्र
कम्पनात्
इति तत्र तस्मात्. हा तस्मात्
कम्पनात्
किं भवति कारणात् काकस्य मुखात्
मांसखण्डः पतति.
पतति हा अग्रे
अधः पतितं मांसखण्डं गृहीतुम् अन्यैः अन्यैः काकैः
गृध्रैश्च
गृध्रैश्च धाव्यते. अधः पतितं
धाव्यते पुनः धाव्यते इति अकर्मकरूपम्, अतः एव तत्र एकवचने एव अस्ति सर्वदा. इदानीं तत्र कर्तृप्रयोगं
अधः पतितं मांसखण्डः न मांसखण्डं मांसखण्डः गृहीतुम् अन्ये काकः काकाः अस्ति वा महोदय? काकैः
भवती जानाति खलु तत्र
रामः रामो राम
काकः इति कीदृशपदम् एव कथा भवति खलु तत्र काकस्य कथा भवति खलु?
आं महोदय पुंलिङ्ग
सत्यं भगिनि, अकारान्तपदं काकः
काकः काकाः अन्ये काकाः गृद्धः गृद्धाः
गृद्राः
गृद्राः च धाव्यन्ति
धावन्ति
ओ धावन्ति अस्ति
धावन्ति. पुनः वाक्यं पूर्णवाक्यं वदतु.
अधः
अधः
पतितः मांसखण्डः गृहीतुम् अन्ये काकाः गृध्राः च धावन्ति.
अस्तु समीचीनं. तत्र मांसखण्डः इति किमर्थं?
कर्तरिप्रयोगे कर्मपदं पतितं मांसखण्डं किञ्चित् क्लेशः भवति महोदय तत्र.
समीचीनम् अस्तु, इदानीम् अतः एव पृष्टवान्. अस्तु भगिनि तत्र अतः तत्र क्रियापदं किमस्ति अस्मिन् वाक्ये?
क्रियापदं धावन्ति.
हा तत्र कर्मणि प्रयोगे धाव्यते इति अस्ति खलु?
धाव्यते
अस्तु अथवा धावन्ति इति अस्ति. तत्र सकर्मकः वा अकर्मकः धातुः वा तत्र?
धावति अकर्मक महोदय.
अकर्मक कर्मपदम् अस्ति वा?
न
नास्ति खलु.
मांसखण्डं
इदानीं तत्र अस्तु धाव्यते इति स्वीकरोतु. तत्र कर्तृपदं किमस्ति अस्मिन् वाक्ये?
कर्तृपदं वा महोदय? धाव्यते काकाः अपि च गृद्धाः.
अस्तु इदानीं तदेव स्वीकरोतु. काकाः काकैः गृध्रैश्च धाव्यते इति लघुवाक्यं स्वीकरोतु.
काकैः गृध्रैः च धाव्यते.
इदानीं तस्य कर्तृरूपं वदतु.
काकाः गृध्राः च धावन्ति.
धावन्ति इति एव अस्ति, तावदेव खलु. अन्येषां पदानां तत्र अन्यत् अन्यः भागः यः अस्ति तस्य परिवर्तनं न भवति.
इत्युक्ते क्रियापदम् अकर्मक वा सकर्मक वा इति
प्रथम क्रियापदं किम् अस्ति? धाव्यते इति एव अस्ति खलु. क्रियापदं किमस्ति? धाव्यते इति अस्ति खलु.
आं महोदय.
यद्यपि इदानीं तत्र एतावत् समीचीनं खलु. तत्र अन्ये काकाः गृध्राः च धावन्ति इति समीचीनं वा तावत्पर्यन्तम्?
आं महोदय.
इदानीं तत्र ग्रहीतुम् इति अस्ति. तत् ग्रहीतुम् इति तत्र अस्मिन् वाक्ये तत्र तस्य तत् क्रियापदं भवति वा? तत्र अतः तत्र भिन्नभागमस्ति, भिन्नखण्डः अस्ति, अतः तत्र तस्य परिवर्तनं न भवति. अतः तत्र अधः पतितं मांसखण्डं ग्रहीतुम् अन्ये काकाः गृध्राः च धावन्ति इति एव भवति. तत्र ग्रहीतुम् इति अस्ति, तस्य कर्मपदम् अस्ति वा ग्रहीतुम् इति?
न
न. किं ग्रहीतुम् इति? न न. किं ग्रहीतुम् इति वक्तुं प्रष्टुं शक्नुमः वा?
आं महोदय, मांसखण्डं ग्रहीतुम्.
अतः तदेव तिष्ठति. ग्रहीतुं ग्रहीतुमिति पदस्य परिवर्तनं न अभवत्, तत् क्रियापदं नास्ति अस्मिन् वाक्ये. अस्मिन् वाक्ये तत्र कर्मणि प्रयोगरूपं केवलं तत्र धाव्यते इति एव आसीत् खलु. अतः तत् तत् तिष्ठति एव. अतः इदानीं तत्र कर्म कर्तृरूपं पुनः वदतु पूर्णवाक्यस्य.
अधः पतितं मांसखण्डं ग्रहीतुम् अन्ये काकाः गृध्राः च धावन्ति.
हा इति अस्ति, समीचीनं. हा अस्तु, अग्रे धन्यवादः भगिनि. अस्तु अग्रे नरेश महोदय.
आं महोदय. सदा काकेन अन्यपक्षिभ्यः मुक्तेन भूयते. सदा काकेन अन्यपक्षिभ्यः मुक्तेन भूयते.
तत्र भूयते इति क्रियापदं
भवति
भवति. अस्तु, तत्र वयं जानीमः अस्ति भवति, तत्र भूयते इति एव रूपं, कर्मणि रूपम्. अस्तु, भवति इति चिन्तयामः. तदेव प्रायशः अत्र समीचीनं भवति.
तदा
कर्तृपदं कर्तृपदं
काकेन.
अस्तु, काकेन भूयते इति स्वीकुर्मः लघुवाक्यं. तत्र कर्म कर्तृप्रयोगः कः भवति?
तदा काकः.
नरेश महोदय, काकेन भूयते इति स्वीकुर्मः लघुवाक्यं, कर्तृप्रयोगः?
तदा काकः अस्ति भवति.
न न, केवलं लघुवाक्यस्य लघुवाक्यस्य काकेन भूयते लघुवाक्यं कर्म भावे प्रयोगे अस्ति. काकेन भूयते इदानीं भावे प्रयोगः, इदानीं तत्र कर्तृप्रयोगः किं भवति?
काकः काकः भवति.
काकः भवति. इदानीं तदा इदय तत्सर्वम् आयोजयतु.
तदा काकः भवति. तदा काकः अन्यपक्षिभ्यः मुक्तः भवति.
हा उत्तमं महोदय. तत्र किमर्थं मुक्तः इति उक्तवान्?
काकः अस्ति, काकः मुक्तः भवति.
हा मुक्तः इति विशेषणं. हा तत्र मुक्तः भवति काकः. तत्र मुक्तः अस्ति चेत् तत्र अन्यपदमपि भवेत्, यद् अस्ति तत्र अन्यपक्षिभ्यः इति अस्ति. तत्र विभक्ति का?
पक्षिभ्यः चतुर्थी
अथवा
अथवा पञ्चमी अपि.
पञ्चमी अपि. अत्र किं भवति?
पञ्चमी अन्यपक्षिभ्यः
मुक्तः इति अस्ति. तत्र मुक्तः अस्ति चेत् तत्र कस्मात् इति भवति. अतः तत्र अन्यपक्षिभ्यः मुक्तः काकः तदा काकः अन्यपक्षिभ्यः मुक्तः भवति यतोहि तत्र इदानीं किमर्थं यतोहि तत्र मांसखण्डं पतति अपि हा तत्र अन्ये तत्र अन्ये काकाः
गृध्राः धावन्ति
तस्य मांसखण्डस्य अनुसरणं कृत्वा अन्यत्र गच्छन्ति काकः यः यत्र अस्ति तत्र ते न सन्ति इति कृत्वा एषः काकः इदानीं तेभ्यः मुक्तः भवति अस्तु अग्रे
तेन ज्ञायते यत् अधुना मया स्वतन्त्रेण भूयते इति
हा इदानीं तत्र भूयते पुनः तत्र
सः जानाति अधुना अहं स्वतन्त्रः भवामि
हा समीचीनं महोदय तत्र किमस्ति तत्र प्रायशः तत्र तत्र वाक्यद्वयम् अस्ति इति अपि वक्तुं शक्नुमः यतोहि तत्र यत् इति अस्ति यत् अनन्तरम् एकं वाक्यम् अस्ति तत्र अधुना मया स्वतन्त्रेण भूयते तत्र अधुना मया स्वतन्त्रेण भूयते इति तत्र कर्तृप्रयोगरूपं किं भवति अधुना
अहं मया
न कर्तृरूपं वदतु कर्मणि रूपं
अस्तु अहं स्वतन्त्र भवामि
हा अहं स्वतन्त्रः भवामि हा इति तत्र यद् अनन्तरं यद् वाक्यमस्ति तस्य अधुना अहं स्वतन्त्रः भवामि इति तेन ज्ञायते इदानीं तत्र तेन ज्ञायते पुनः तत्र
सः जानाति
हा सः जानाति यत् अधुना अहं स्वतन्त्रः भवामि इति समीचीनं हा अस्तु धन्यवादः महोदय
तत्र मुक्तेन इत्युक्ते गेट् रिड् आफ्
मुक्तः हा तत्र विमुक्तः गेट् रिड् आफ् इति नास्ति तत्र रिलीस्ड् तत्र मोक्षः मुक्तः इति भवति खलु फ्रीड् इति अर्थे तत्र फ्रीड् फ्रम् इति भवति खलु हा अतः तत्र पञ्चमी इति भवति तत्र अन्यपक्षिभ्यः मुक्तः भवति
ओके मेम् ओके धन्यवादः
हा तत्र मुक्तः अस्ति चेत् तत्र कस्मात् इति प्रश्नः भवति कस्मात् मुक्तः इति पापात् मुक्तः इति तादृशं भवति खलु
आमाम् आं महोदय
अतः तत्र पञ्चमी हा अस्तु अग्रे तत्र सुजाता भगिनी अग्रे पठति वा
आं महोदय मांसखण्डेन इव अस्मासु अपि अहङ्कारेण भूयते
तत्र क्रियापदं किमस्ति
मांसखण्डेन अस्मासु अहङ्कार भूयते भवति इति क्रियापदं
कर्तृपदं किमस्ति
कर्तृपदम् अस्मासु सप्तमी विभक्ति
अतः तत्र कर्तृपदं नास्ति
नास्ति मांसखण्डः
तदपि
खण्डेनापि अहङ्कारेण
तृतीयविभक्तिपदं किम् अस्ति तत्र अस्मिन् वाक्ये
अहङ्कारेण
हा समीचीनम् अहङ्कारेण भूयते तत् किं भवति
अहङ्कारः भवति
अहङ्कारः
भवति
अहङ्कारः भवति इदानीं तत्र मांसखण्डेन इव मांसखण्डः इव स्वीकरोतु तत्र इदानीं
मांसखण्डः इव
अस्मासु
अपि अहङ्कारः भवति
हा तत्र यथा मांसखण्डः तत्र कथायाम् आसीत् तथैव अस्मासु तत्र काके तत्र मांसखण्डः यथा आसीत् तथैव अस्मासु अहङ्कारः भवति अग्रे
यदि सः अहङ्कारः त्यक्तः भवति तर्हि जीवनेन भाररहितेन भूयते यदि यदि तर्हि
यदि भागः तर्हि इति भागः यदि सः अहङ्कारः
त्यक्तः भवति तर्हि जीवनेन जीवनं भाररहितं भवति
यदि सः अहङ्कारः त्यक्तः भवति तर्हि जीवनं भाररहितं भवति तत्र भाररहितम् इति विशेषणम् अस्ति कीदृशं जीवनं
भाररहितं जीवनम्
इति भवति अतः तत्र यदि सः अहङ्कारः त्यक्तः तत्र तप्रत्ययः तदपि कर्मणि प्रयोगः इव एव अस्ति किन्तु भूतकाले भवति इति तत्रापि तत्र यदि वयम् अहङ्कारं त्यजामः
अस्माकं
जीवनं भाररहितं भवति अग्रे
मुक्तेन काकेन गगनसौन्दर्यं यदा द्रष्टुं शक्यते तथैव अस्माभिः अपि जीवनसौन्दर्यं द्रष्टुं शक्यते यदा मुक्तेन काकः गगनसौन्दर्यं यदा पश्यति
यथा
द्रष्टुं शक्यति
तत्र शक्नोति
शक्नोति तदैव अस्माभिः वयमपि जीवनसौन्दर्यं द्रष्टुं
शक्नुमः पुनः एकवारं वदतु भगिनि पूर्णवाक्यं कर्तृप्रयोगे मुक्तः काकः
गगनसौन्दर्यं यदा द्रष्टुं शक्यते
शक्नोति
तदैव वयमपि जीवनसौन्दर्यं द्रष्टुं शक्नुमः
तत्र यावत्पर्यन्तं तत्र काकस्य पृष्ठतः तत्र अन्ये काकाः गृध्राः आसन् तावत्पर्यन्तं तत्र काकः तत्र काकस्य अवधानं तत्र मांसखण्डस्य उपरि आसीत् केवलं तत्र मांसखण्डः त्यक्तः तदनन्तरं तत्र काकः मुक्तः भवति तदा एव तत्र आकाशस्य तत्र गगनसौन्दर्यं द्रष्टुं
पश्यति
सः शक्नोति तथैव वयमपि यदि अहङ्कारं त्यजामः तदा एव तत्र वयमपि जीवनस्य सौन्दर्यं द्रष्टुं शक्नुमः इति अस्तु समीचीनं
धन्यवादः महोदय
धन्यवादः वंशीश्वरभगिनी प्रश्नः
उत्तमा कथाः अस्ति महोदय
उत्तमा कथा अस्ति सत्यं भगिनि
महोदय एकवारं काकैः गृध्रैः चापि स्वस्य श्रान्ततां अपरिगणय्य तस्य पृष्ठतः दीयते तस्य वाक्यस्य अर्थं वक्तुं शक्नुमः महोदय काकैः गृध्रैः च अपि स्वस्य श्रान्ततां इत्युक्ते काकाः गृध्राः च अपि स्वस्य श्रान्तताम् अपरिगणय्य तस्य पृष्ठतः दीयते कस्य पृष्ठतः काकस्य पृष्ठतः वा ओके
तत्र किं भवति भगिनि काकः मांसखण्डं गृहीत्वा अस्ति खलु तस्य पृष्ठतः अन्ये काकाः गृध्राः च तत्र धावन्ति इदानीं सः काकः किं करोति ततोपि उपरि गच्छति खलु यदि सः काकः ततोपि उपरि गच्छति इदानीं किं भवति अन्ये काकाः गृध्राः अपि च अपि तस्य अनुसरणं कुर्वन्ति खलु किन्तु तत्र एषः काकः श्रान्तः वा इति न जानीमः, किन्तु अन्ये तत्र काकाः गृद्राः ये सन्ति तेषु प्रायशः केचन सन्ति ये श्रान्ताः भवन्ति खलु, खलु?
अस्तु महोदय.
तत्र कोऽपि काकः अथवा गृद्रः श्रान्तः अस्ति इति चिन्तयतु, सः श्रान्तः अस्ति, किन्तु श्रान्तः अस्ति इति कृत्वा तत्र अहम् अनुसरणं न करोमि इति सः तस्य चिन्तनं नास्ति. श्रान्तः अस्ति किन्तु अहं मांसखण्डम् इच्छामि, अहं मांसखण्डम् इच्छामि, तत् प्राप्नोमि इति कृत्वा सः
तत् काकस्य पृष्ठतः
गच्छति. अतः तत्र किं भवति, अपरिगणय्य, अपरिगणयति, परिगणयति नाम तस्य तस्मिन् विषये तत्र चिन्तनं करोति, किन्तु इदानीं तत्र अस्तु अस्तु तदस्ति, किन्तु इदानीम् अहं तस्य विषये चिन्तनं न करोमि इति. तत्र यप् अस्ति यतोहि तत् कृत्वा एव सः अनुसरणं करोति. नाम तत्र अस्तु श्रान्तः अस्मि किन्तु तद् इदानीं मास्तु, अहं गच्छामि एव इति सः चिन्तयति. अस्तु समीचीनम्. इदानीं तत्र एतेषु वाक्येषु तत्र एकः अंशः आसीत्, नाम तत्र वयं जानीमः तत्र कर्तृप्रयोगात् कर्मणि प्रयोगः रूपम् इच्छामश्चेत् तत्र परिवर्तनसमये तत्र कर्तृपदस्य परिवर्तनं भवति, कर्मपदस्य परिवर्तनं भवति, क्रियापदस्य अपि परिवर्तनं भवति इति तत्र यथा प्रिया भगिन्या आदौ उक्तं परिवर्तनं तत्र भवति, किन्तु अन्येषु स्थलेषु का स्थितिः इति प्रश्ने तत्र इदानीं तत्र अग्रिमे तत्र पेज् 130 मध्ये तत्र अवधेयमिति अस्ति, तद् एकवारं पठामः. तत्र शुभदा भगिनी पठति वा तत्र पुटसङ्ख्या 130 मध्ये अवधेयम्? आं
महोदय, श्रूयते वा? अस्तु. अवधेयम्, एतेषां वाक्यानां परिशीलनानन्तरं वयं भावे प्रयोगस्य नियमान् एवं सङ्ग्रहीतुं शक्नुमः. प्रथमः बिन्दुः, भावे प्रयोगे कर्तृपदं तृतीया विभक्त्यन्तं भवति. द्वितीयबिन्दुः,
भगिनि भगिनि न न न 130
130 क्षम्यतां क्षम्यताम्. अवधेयम्
अवधेयम् अवधेयम् इति अस्ति.
आमां, सकर्मकाः धातवः, तस्य द्विधा विभजनं भवति, कर्तरीप्रयोगः कर्मणीप्रयोगः. अकर्मकाः धातवः अपि कर्तरीप्रयोगः भावे प्रयोगः इति द्विधा विभज्यते. अग्रे पठामि.
तत्र यदि तत्र छात्रः पठति, छात्रेण पठ्यते इति अस्ति, तत्र छात्रेण पठ्यते तत्र कर्मपदम् अस्ति वा?
कर्मपदं नास्ति महोदय.
अतः तत्र तत् कर्मणि प्रयोगः वा भावे प्रयोगः वा?
भावे प्रयोगः.
किमर्थं?
तत्र कर्म नास्ति, अकर्मक.
किन्तु यत् भवती इदानीं पठितवती तत्र सकर्मकः दातवः, कर्तृप्रयोगः कर्मणि प्रयोगः, अकर्मकः दातवः, कर्तृप्रयोगः भावे प्रयोगः. भावे प्रयोगः कस्य
धातुः यदि अकर्मकः भवति तस्य कर्मणि प्रयोगः भावे प्रयोगः इति उच्यते.
अतः तत्र इदानीं तत्र पठति इति तत्र सकर्मकः वा अकर्मकः वा?
पठ धातु सकर्मकः इति भाति.
सकर्मकः एव, यतोहि छात्रः श्लोकं पठति इति वाक्यम् अस्ति खलु, अतः तत्र सकर्मकः धातु. अतः तत्र यद्यपि कर्मपदं वाक्ये नास्ति, प्रयोगस्य नाम तु कर्मणि प्रयोगः. अतः तत्र छात्रेण पठ्यते इति अस्ति, कर्मपदं नास्ति, किन्तु तत्र कर्मणि प्रयोगः एव इति ज्ञातुं शक्नुमः. यतोहि तत्र भावे प्रयोगः अस्ति चेत् केवलं तत्र पठ्यते इति एव तत्र प्रथमपुरुषः एकवचनरूपमेव भवति. किन्तु तत्र पठ्यते, पठ्येते, पठ्यन्ते, छात्रेण श्लोकाः पठ्यन्ते इति अपि रूपं भवति. अतः तत्र कर्मणि प्रयोगः एव न तु भावे प्रयोगः अस्तु
कर्म साक्षात् न भवति चेदपि धातुः यदि सकर्मकः भवति तत्तु कर्मणि प्रयोगः एव कर्म भवेत् न भवेत्
हा कर्मपदस्य उपस्थितिः भवति न वा इति तत्र वार्ता नास्ति
महोदय परन्तु तत्र किञ्चित् क्लेशः अस्ति यदि कर्मपदं नास्ति तर्हि भावे प्रयोगे एव भवति यद्यपि तत्र
न इदानीमेव उक्तम् तत्र अवधेयम् अकर्मकः दातवः ये सन्ति तेषामेव भावे प्रयोगः तत्र नाम कर्मपदम् अस्ति नास्ति इति न धातुः कीदृशः धातुः अकर्मकः धातुः चेत् भावे प्रयोगः
परन्तु तत्र जनार्दन हगडे महोदयस्य पुस्तके एतादृशः चिन्तनम् आसीत् महोदय अहम् अनन्तरं प्रेषयामि तत्र तेन किम् उक्तम् इति चेत् तत्र यदि सकर्मकः धातुः अस्ति चेत् अपि तत्र यदि कर्मपदं नास्ति तर्हि भावे प्रयोगे एव इति चिन्तनं भवेत् इति तेन उक्तं
तदपि तादृशमतमपि तादृशमपि चिन्तनं भवति इदानीं मास्तु तत्र सारल्यार्थं हा यतोहि तत्र हा तत्र नाम तत्र अस्माकम् अवधानं कुत्र अस्ति इति हा अस्माकम् अवधानं तत्र हा अस्तु तत्र एकः अंशः अत्र प्रायशः वक्तव्यः अस्ति नाम तत्र किमर्थं भावे प्रयोगः इति तत्र कर्मणि प्रयोगः तत्र कर्मणि प्रयोगे किं भवति कर्मणि प्रयोगे तत्र अस्माकं तत्र अवधानं कर्मपदे भवति तत्र कर्म अस्ति क्रियापदस्य कर्म अस्ति इति कर्म नाम क्रियायाः तत्र फलम् इति तत्र फलं भवति कर्मपदम् अत्र तत्र अस्ति किन्तु तत्र तस्य अभावे तत्र कर्मपदं नास्ति चेत् तत्र अस्माकम् अवधानं किं भवति तत्र क्रियायाः भावे भावः यः अस्ति तस्मिन् अस्माकम् अवधानं भवति अतः तत्र कर्मपदं नास्ति चेत् किं भवति अस्माकम् अवधानं तत्र क्रियायाः भावे एव भवति इति कृत्वा तदपि भावे प्रयोगः इति चिन्तयितुं शक्नुमः किन्तु पुस्तके यदस्ति तद् अनुसरामः पुस्तके यद् दत्तमस्ति अकर्मकः धातुः अस्ति चेत् तद् भावे प्रयोगः सकर्मकः धातुः अस्ति चेत् तद् सः प्रयोगः कर्मणि प्रयोगः इति इदानीं चिन्तनम् अस्माकं चिन्तनं भवेत् अग्रे गत्वा तत्र परिवर्तयामः न वा इति द्रक्ष्यामः अस्तु अग्रे सुमता भगिनि
प्रयोगपरिवर्तनसन्दर्भे अवधातव्याः केचन अवधातव्याः केचन अंशाः सन्ति यथा प्रयोगपरिवर्तन
अवधातव्याः नाम किम् अस्ति
यस्य अवधेयं भवेत्
अस्माभिः अवधातव्यः
अस्माभिः अवधातव्यः
नाम मया कर्तव्यं मया करणीयं तादृशम् अस्माभिः अवधातव्यम् अवधातव्यः अंशः अस्माभिः अवधातव्यः अंशः नाम वयं तस्मिन् उपरि तस्य उपरि अथवा तस्य उपरि अस्माकम् अवधानं भवेत्
प्रयोगपरिवर्तनसन्दर्भे कर्तृपदस्य कर्मपदस्य क्रियापदस्य च रूपेषु परिवर्तनं भवति परन्तु वाक्ये स्थितानाम् अन्येषां शब्दानां परिवर्तनं न भवति यथा सुरेशः प्रतिदिनं सायङ्काले गृहे पाठं पठति एतस्य कर्मणि प्रयोगः यथा सुरेशेन सायङ्काले गृहे पाठः पठ्यते अत्र प्रतिदिनं सायङ्काले गृहे इत्येतेषां रूपाणां परिवर्तनं न जातं तानि रूपाणि कर्तरिप्रयोगे कर्मणि प्रयोगे च समानानि एवमेव भावे प्रयोगे अपि
अतः तत्र तृतीयविभक्ति तत्र चतुर्थीविभक्ति पञ्चमीविभक्ति यत् सप्तमी भवति तत्र तेषां पदानां तत्र परिवर्तनं
न भवति
हा अव्ययमस्ति चेदपि परिवर्तनं न भवति अतः तत्र एतत् सर्वं विधाय तत्र केवलं कर्तृपदस्य कर्मपदस्य क्रियापदस्य अपि कर्तृपदस्य विशेषणम् अस्ति चेत् तस्य परिवर्तनं तत्र उत्तमः छात्रः इति अस्ति चेत् उत्तमेन छात्रेण इति भवति अथवा तत्र छात्रः अनेकान् श्लोकान् पठति अस्ति चेत् तत्र छात्रेण अनेके श्लोकाः पठ्यन्ते इति तत्र विशेषणम् अस्ति चेत् अपि कर्मपदस्य वा कर्तृपदस्य तत्रापि परिवर्तनं भवति किन्तु अन्यत्र परिवर्तनं न भवति एतदेव वयं यदा वयं कथां पठन्तः आसं तत्र अस्मः तस्मिन् समये एतादृशं एव कृतवन्तः तत्र केवलं तत्र कर्तृपदस्य क्रियापदस्य कर्मपदस्य एव परिवर्तनं कृतवन्तः तस्मिन् सन्दर्भे अस्तु समीचीनं धन्यवादः भगिनि अस्तु इदानीम् अग्रे तत्र इदानीं पुनः तत्र पेज् 128 अस्ति तत्र अधोभागे यद् अस्ति तद् न पठितवन्तः तद् एकवारं पठामः तर्हि तत्र एतावत् तत्र हा मधुमहोदय तत्र किञ्चित् पठति वा तत्र एतानि पेज् 128 अधोभागे मधुमहोदय अस्ति वा अस्तु तत्र ललिता भगिनी किञ्चित् पठति वा तत्र
आं महोदय एतानि वाक्यानि सावधानतया उच्चैः पठत काकेन आकाशे दीयते मम सन्तोषेण भूयते कन्दुकेन पत्यते सूर्येण प्रकाशयते
प्रकाश्यते तत्र मम सन्तोषेण भूयते मम सन्तोषेण भूयते इति तत्र परिवर्तनं कुर्मश्चेत् कर्तृप्रयोगः वाक्यं किं भवति
अहं
न इदानीमेव उक्तं खलु भगिनी इदानीमेव तत्र शुभदा भगिन्या पठितं तत्र किम् आसीत् कर्तृपदस्य कर्मपदस्य क्रियापदस्य एव परिवर्तनं भवति तत्र यदि तत्र षष्टिविभक्ति पञ्चमीविभक्ति चतुर्थीविभक्ति सप्तमीविभक्ति अस्ति चेत् परिवर्तनं न भवति अतः तत्र
मम सन्तोषेण भवामि
न तत्र भूयते इति अस्ति क्रियापदं कर्तृपदं किम् अस्ति तत्र
परिवर्तनं न भवति महोदय
न क्रियापदस्य परिवर्तनं भवति एव तत्र भूयते इति भवति भूयते इति स्थाने भवति किन्तु तत्र भवति न वा इति न जानीमः एतावत् कर्तृपदं किम् इति एव ज्ञात्वा एव रूपं किम् इति ज्ञातुं शक्नुमः अतः तत्र कर्तृपदं किम् अस्ति अस्मिन् वाक्ये मम सन्तोषेण भूयते इति
कर्तृपदं किमपि नास्ति
भूयते इति अस्ति चेत् तत्र कर्तृपदं भवेत् खलु वाक्ये कर्तृपदं विना तत्र वाक्यं न सम्भवति खलु भगिनि न अहं न अहम् आसीत् चेत् तत्र मया इति भवेत् खलु तृतीयविभक्त्यन्तं किन्तु हा तत्र तृतीयविभक्त्यन्तं पदं किम् अस्ति
मया
न अस्मिन् वाक्ये मम सन्तोषेण भूयते हा तदेव कर्तृपदमस्ति सन्तोषेण भूयते तावदेव लघुवाक्यं सन्तोषेण भूयते भूयते इति अकर्मकधातुः भवति इति अकर्मकधातुः भूयते इति भवति अतः तत्र सन्तोषेण इति प्रथमविभक्तिरूपं किम् अस्ति
सन्तोषः
हा सन्तोषः 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 पुल्लिङ्गरूपं सन्तोषः भवति मम सन्तोषः भवति
मम सन्तोषः
भवति अथवा तत्र प्रायशः अस्ति अस्ति इति अश् धातुः अपि भू धातुः कर्मणि प्रयोगे तत्र भूयते इति एव भवति अस्तु
मम सन्तोषः भवति
मम सन्तोषः भवति अथवा मम सन्तोषः
सन्तोषम् अस्ति
सन्तोषः अस्ति द्वयमपि द्वयमपि समानमेव हा तत्र मम सन्तोषः अस्ति मम सन्तोषः भूयते भवति कर्मणियोगे मम सन्तोषेण भूयते इति एव अस्ति समीचीनम् अस्तु इदानीं समयः अपि जातः तत्र अन्ते तत्र शुभदा भगिनी तत्र शान्तिमन्त्रं वदति वा तदनन्तरं समापयामः
आं महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः धन्यवादः महोदय नमस्कारः
धन्यवादः भगिनी धन्यवादः नमस्कारः
धन्यवादः
धन्यवादः महोदय नमस्कारः
धन्यवादः नमस्कारः